इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। गुजरातराज्यस्य अहमदाबाद विमानस्थानकं निकषा 200 जनैः सह लण्डननगरं प्रति गम्यमानं एयर इण्डिया इत्यस्य AI-171 विमानं पतितम्, यस्मिन् द्वाभ्यां वैमानिकाभ्यां सह 10 क्याबिन क्रू इति सदस्याश्च आसन्। विमानमिदं गुजरातस्य अहमदाबाद विमानस्थानकस्य समीपे मेघानीनगरक्षेत्रे पतितम्। दुर्भाग्येण विमाने 69 भारतीयाः, 53 ब्रिटिशजनाः, 1 केनडादेशीयः जनः, 7 पोर्तुगीस् नागरिकाश्च आसन्। ह्यः विमानदुर्घटनायाः होरैकानन्तरं केन्द्रीय गृहमन्त्री अमितशाहः अहमदाबाद नगरं गतवान्। सः नागरिक विमान मन्त्रिणा राममोहन नायडुवर्येण, गुजरातस्य मुख्यमन्त्रिणा भूपेन्द्र पटेलेन, वरिष्ठैः अधिकारिभिश्च सह साहाय्योद्धार कार्याणां समीक्षां कृतवान्। उपवेशनानन्तरं प्रसारमाध्यमैः सह वार्तालापं कुर्वन् श्रीशाहः अवदत् यत् दुर्भाग्यपूर्णघटनायाः कारणेन सम्पूर्णः देशः स्तब्धः अस्ति, तथा च देशस्य सर्वे नागरिकाः अस्यां दुर्घटनायां शोकभावान् प्रकटयन्ति इति।
घटना से पूरा देश क्षुब्ध है और पूरा देश एक साथ पूर्ण संवेदनाओं के साथ ये जो दुर्भाग्यपूर्ण हादसे में पैसेंजर हताहत हुए हैं इनके परिजनों के साथ खड़ा है। सबसे पहले मैं भारत सरकार, गुजरात सरकार, प्रधानमंत्री जी और गुजरात सरकार की ओर से भी जो लोग हताहत हुए हैं इनके परिजनों के प्रति गहरी संवेदना व्यक्त करता हूँ।
सः एतदपि दृढीकृतवान् यत् नागरिक विमान मन्त्रालयः घटनायाः कारणं ज्ञातुम् औपचारिक अन्वेषणं प्रारभत इति।
एविएशन डिपार्टमेंट ने अपनी जांच शुरू कर दी है और जांच तेजी से आगे बढ़े इसके लिए भी एविएशन मंत्री जी ने सूचनाएं दी।
मंत्री अहमदाबाद नगरस्य लोक चिकित्सालयस्य ट्रॉमा इति केन्द्रं प्रति अगच्छत्, यत्र अनेके व्रणिताः उपचाराधीनाः जनाः सन्ति। सः चिकित्सा व्यवस्थायाः समीक्षाम् अकरोत्। आपत्कालीन परिचर्यायाः पर्यवेक्षमाणैः चिकित्सकैः अधिकारिभिश्च सह वार्तालापम् अकरोत्। गुजरात सर्वकारः पीडित परिवाराणाम् अभिज्ञानार्थं DNA इत्यस्य प्रतिदर्शान् दातुं प्रार्थयति। दुर्घटनायां मृतानां मध्ये गुजरातस्य पूर्व मुख्यमंत्री विजय रूपाणी अपि अस्ति। दुर्घटनाग्रस्ते विमाने एकः यात्री लघुव्रणैः सह जीवितः प्राप्तः। राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च शोकं प्रकटितवन्तः। सेना तथा NDRF इत्यस्य राष्ट्रिय आपदुद्धार दलानि मानवीय सहायतायां विपद निवारण प्रयासेषु संलग्नानि आसन्। अहमदाबाद विमान दुर्घटनायां पीडितानां जनानां कृते सम्पूर्णे विश्वे नेतारः शोकं प्रकटितवन्तः। संयुक्त राष्ट्रसंघस्य महासचिवः आन्टोनियो गुटरेसः पीडितानां परिवारान् प्रति शोकं प्रकटितवान्। सः व्रणितेभ्यः शीघ्रं स्वस्थतां प्रार्थयत्। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन एतद् भयानकं दुःखम् इति उक्तम्। यूके प्रधानमन्त्री कीर स्टार्मर अवदत् यत् सः अतीव दुःखितः अस्ति, विशेषतः यतः बहवः ब्रिटिश नागरिकाः विमाने आसन्। रसिया देशस्य राष्ट्रपतिना व्लादिमीर पुतिन इत्यनेन, राष्ट्रपतिना द्रौपदी मुर्मू इत्यस्यै, प्रधानमन्त्रिणे नरेन्द्र मोदिने च शोकसन्देशः प्रेषितः। अमृतसर आरक्षकस्थले ग्रेनेड इत्यनेन कृताक्रमण विषये राष्ट्रिय अन्वेषण संस्था बब्बर खालसा इंटरनेशनल इति आततायी दलं विरुध्य भयोत्पादक संघटनायाः विषये पंजाब हरियाणा प्रदेशयोः अनेक स्थानेषु अन्वेषणं कृतवत्। अन्ते दिल्ली, पंजाब, हरियाणा, चंडीगढ़, जम्मू कश्मीर इत्येतेषु प्रदेशेषु शनिवार पर्यन्तं तीव्र उष्ण तरंगस्य स्थितिः भवितुम् अर्हति इति भारतीय ऋतुविज्ञान विभागस्य पूर्वानुमानम् अस्ति इति वार्ताः।